समुन्मीलसंवित् कमलमकरन्दैकरसिकं भजेऽहं सद्वन्द्वं किमपि महतां मानसचरम् यदा लापादट्टादश गुणितविद्या परिणति यदा दत्ते दोषात् गुणमखिलमद्रपय इव तव स्वाधिष्ठाने हुतवहमधिष्ठाय निरतं तमेदेव संवर्तं जननि महतीं तां च समयां यदा लोके लोकान् दहति महति क्रोधकलिते दयार्द्रया दृष्टिः शिशिरमुपचारं रचयति तटित्वन्तं शक्त्या तिमिरपरिपन्थे स्फुरणया स्फुरन्नानारत्नाभरण परिणद्धेन्द्रधनुषं तव श्याममेघं कमपि मणिपुरैकशरणं निषेवे वर्षन्तं हरमिहिरतप्तं त्रिभुवनम् तवाधारे मूले सहसमयया लास्यपरया नवात्मानं मन्ये नवरसमहाताण्डवनटम् उभाभ्यामेताभ्याम् उदयविधिम् उद्दिश्य दयया सनाताभ्यां जज्ञे जनकजननीमत् जगदिदम् गतिर्माणिक्यत्वं गगनमणिभिः सान्द्रघटितं किरीटं ते हैमम् हिमगिरिसूते कीर्तयति यः सनिडेयश्चाया चूर्णशबलं चन्द्रशकलं धनुषौ नासीरं किमिति न निबध्नाति धिषणा धुनोत्ध्वान्तं नः तुलितदलिते दीवरवनम् घनस्निग्धश्लक्ष्णं चिकुरनिकुरुम्बं तव शिवे यदीयं सौरभ्यं सहजम् उपलब्धुं सुमनसः वसन्त्यस्मिन् मन्ये बलमथनवाटीविटपिन तनोतु क्षेमं नः तव वदनसौन्दर्यलहरी परिवाहश्रोतः सरणिरिवसीमन्तसरणिः वहन्ति सिन्दूरं प्रबलकबरी भारतिमिर द्विषां बृन्दैर्बन्दीकृतमिव नवीनार्ककिरणम् अरालै स्वाभाव्यात् अलिकलभसश्रीभिरलकैः परितं ते वक्त्रं परिहसति पङ्केरुहरुचिं दरस्मेरे यस्मिन् दशनरुचि किञ्चल्करुचिरे सुगन्धूमाद्यन्ति स्मरदहनचक्षुर् मधुलिहः ललाटं लावण्य द्युतिविमलम् आभाति तव यत् द्वितीयं तन्मन्ये मकुटघटितं चन्द्रशकलं विपर्यासन्यासात् उभयमपि सम्भूय च मितः सुधालेपस्यूतिः परिणमति राका हिमकरः।